सरस्वती नमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा सर्वेभ्यः नमः
धन्यवादः भगिनी सर्वेभ्यो नमः स्वागतम् अस्मिन् वर्गे अस्माकं प्रवर्तमानः विषयः अस्ति सर्वनामशब्दाः इति सर्वनामशब्दाः इत्युक्ते तत्र वयं पूर्वमपि दृष्टवन्तः तत्र एषः सः एषा सा इति किन्तु इदानीं तत्र नूतन सर्वनामशब्दः अपि इदानीं तत्र भवति तत्र अयम् अपि इदं तदनन्तरं तत्र स्त्रीलिङ्गे अग्रे अपि भविष्यति स्त्रीलिङ्गे तत्र किं रूपम् इयम् इति भवति अतः अस्मिन् अध्याये तत्र केवलं पुल्लिङ्ग अपि नपुंसकलिङ्गरूपाणि स्वीकृतानि सन्ति किन्तु अग्रिमे अध्याये तत्र स्त्रीलिङ्गरूपमपि पश्यामः किन्तु अद्य तत्र गीतासोपाने द्वितीयभागे तत्र कुत्र स्मः इत्युक्ते पेज् 49 पेज् 50 मध्ये तत्र कथा या कथा अस्ति तां कथां पठन्तः स्मः अस्तु तर्हि तत्र किञ्चित् पुनस्मरणरूपेण तत्र नरेश महोदय तत्र किञ्चित् विवृणोति वा तत्र भूमिका का इति कथायाः भूमिका बेक्ग्रौण्ड् तत्र
महाभारतयुद्ध युद्धे समाप्त अस्ति तदा
युद्धः समाप्तः
भीष्मः
युद्धं समाप्तं
भीष्मः युद्ध स्थले शरशय्यायाम्
आसीत्
तत्र युधिष्ठर अनुजैः सह गतवान् भीष्मः समीपे गतवान्
भीष्मस्य समीपे
गतवान् नमस्कारं कृतवान् तदा
अतः गत्वा नमस्कृत्य
उक्तवान्
उक्तवान् गत्वा नमस्कृत्य उक्तवान्
युधिष्ठिरः चिन्तितवान् सः एव विनाशस्य कारणम् अस्ति
सः किं चिन्तितवान् सः एव अहमेव सर्वविनाशस्य कारणम् इति सः चिन्तितवान् समीचीनं महोदय
भीष्मः तं सान्त्वना दत्तम्
तत्र भीष्मः अङ्गीकरोति वा एतद्
न अङ्गीकरोति
न तादृशः तत्र तत् सत्यं नास्ति इति सः वदति अतः
एका कथा श्रावितवान्
तस्य भीष्मस्य सिद्धान्तः कः सः किं वदति तत्र तस्य चिन्तनं कथं प्रदर्शयति कथायाः पूर्वं कथं प्रदर्शयति सः
सः वदति अस्य कारणं त्वं नास्ति
नास्ति त्वं नास्ति त्वं न असि
एतत्तु स्वस्य कर्मणः यथा अस्ति यथा आसीत् तथा भवति
कर्म यथा आसीत् तथा फलं भवति तथा फलं भवति समीचीनं महोदय यथा कर्म अकरोत् तथा इदानीं फलं अनुभवन् सन्ति अथवा अस्ति अनुभवन् अस्ति इति समीचीनं महोदय अस्तु इदानीं रघुपतिमहोदय नमस्कारः
नमस्कारः महोदय
पूर्वं न श्रुतं
चिह्नः
सम्पर्कः समीचीनं नासीत्। समीचीनं महोदय, इदानीं समीचीनम्। अस्तु महोदय, तत्र पुटसङ्ख्या 4950 मध्ये स्मः महोदय, गीता भागे। अस्तु, इदानीं तत्र सूर्यकुमारी भगिनी, इदानीं अग्रे तत्र भीष्मः किं करोति? भीष्मस्य वाक्यं श्रुत्वा युधिष्ठिरः किं सन्तुष्टः वा?
युधिष्ठिरः समाहितः न अभवत्।
न अभवत्, हा समीचीनं। हा,
भीष्मः पुनः तस्य समाहित उद्देशेन
समीचीनं, तस्य समाहितस्य तत्र समाहितः इति प्रायशः समाहितः इति तत्र युधिष्ठिरस्य इति भवति, तत्र
समाहित
अथवा समाधानस्य इति स्वीकुर्मः। समाधानस्य कृते अथवा समाधानार्थं, समाधानाय एकां कथां श्रावितवान्। समीचीनं भगिनि, हा, सा कथा का आसीत्?
गौतम्याः कथा।
गौतम्याः कथा, अतः किञ्चित् विवृणोतु भगिनि, तत्र गौतमी का अपि किम् अभवत् तत्र?
गौतमी एका तपस्विनी आसीत्, तस्याः पुत्रः सर्पदर्शने
मारितवान् अथवा मारितवान्।
अर्जुनक नाम ए व्याघः अस्ति, तद्दृश्यं
यद् घटना, या घटना अभवत् तां घटनां सः दृष्टवान्।
तदनन्तरं सः स्नायुपासेन बन्धनं कृतवान्,
सर्पस्य बन्धनं कृतवान्। समीचीनं भगिनि,
कृतवान्। तदनन्तरं गौतम्याः समीपं आनीतवान्।
गौतम्याः समीपम् आनीतवान्, तत्र सर्पं बद्ध्वा आनीतवान् गौतम्याः समीपं। समीचीनं भगिनि, हा, तत्र किम् उक्तवान् सः? सः किम् इच्छति?
अर्जुनकः,
अर्जुनकः किम् इच्छति? अर्जुनकः गौतमी अस्ति, तत्र विभक्ति का विभक्ति भवति, कां विभक्तिम् इच्छति तत्र स्थापितुं? द्वितीया, गौतमी नदी किम् अस्ति? नदीं गौतमीं
उक्तवान् माता, मातः दुष्टसर्पः इदमस्ति,
एषः अस्ति,
एषः दुष्टसर्पः
अस्ति,
तव पुत्रं अदर्शत्,
एषः अदर्शत्,
अहं एतं सर्पं अग्नौ क्षिपामि, मम उद्देशं
केन मार्गेण, केन मार्गेण तस्य
तेन मार्गेण, कस्य
केन मार्गेण तस्य दण्डम् अथवा तं दण्डं
इच्छति
हा तस्य तस्य दण्डनम् अथवा तत्र केन मार्गेण तस्य दण्डनम् अथवा तं दण्डयामि इति
दण्डयामि
पृच्छति सः
अग्नौ क्षिपणि अथवा खण्डश करवाणि इति
हा सर्पं खण्डश करवाणि अथवा अन्य मार्ग अन्य कोऽपि मार्ग अस्ति चेत् वदतु येन अहं तं दण्डितुं शक्नोमि यद्वदति भवती यद्वदति भवत्याः वचनम् अहं
पालयामि
समीचीनं भगिनि हा अतः तत्र गौतमी किम् उक्तवती अस्तु एतेन मार्गेण करोतु इति सः उक्तवती वा अथवा सा न अङ्गीकरोति
सा न अङ्गीकृतवती
अङ्गीकृतवती सा न अङ्गीकृतवती व्याधस्य वचनं
सा
न अङ्गीकृतवती तत्र तस्याः चिन्तनं किम् आसीत् तत्र सर्पस्य मरणम् आवश्यकम् इति सा चिन्तितवती वा अथवा न
सः सा वदति मम पुत्रः जीवितः न पुनरा
तत्र सः मृतः मम पुत्रः मृतः सर्पस्य मरणेन मम पुत्रः पुनः जीवितः
जीवितः न
भविष्यति समीचीनं भगिनि हा न भविष्यति जीवितः न भविष्यति अतः तत्र किं अग्रे किं भवति तत्र व्याधः न अङ्गीकरोति गौतमी अपि न अङ्गीकरोति अतः किं भवति
पुनः पुनः व्याधः सत्त्वं मारयितुम् इच्छा अस्ति चेत् पुनरपुनः तव
तस्मिन् समये तत्र
सम्भाषणमध्ये गौतमी व्याधयोः मध्ये सम्भाषणम् अभवत् तत् सम्भाषणं श्रुत्वा सर्पः मनुष्यभाषया अवदत्
हा इदानीं सत्र सर्पः मनुष्यभाषया वदति
अहम् एकं वाक्यं वदामि कृतयुगे तत् एतत् सम्भवति
इति वा भगिनि अस्तु अस्तु धन्यवादः भगिनि अस्तु तत्र भवती जानाति वा तत्र कस्मात् तत्र कुतः एतद् एषा कथा स्वीकृता इति
कृतयुग रामयुग
रामयुग किन्तु तत्र कथं जानाति भवती तत्र एषा घटना तस्मिन् समये अभवत् इति
अहं न जानामि
अस्तु अस्तु किन्तु जानाति वा तत्र एषा कथा कुतः तत्र पुराणात् वा इति किमपि जानाति वा तत्र कस्मात्
पुराणात् रामायणे
एव अस्ति इति वा अस्तु
रामः गौतम्याः गृहं प्रवेशितवान्
इति अस्तु अस्तु किन्तु किन्तु सा एव गौतमी इति न जानीमः खलु तत्र रामायणस्य गौतमी एव अत्रापि इति न
जानीमः
भवितुमर्हति अतः न जानामि किन्तु भवितुमर्हति भगिनि अस्तु समीचीनम् अस्तु अस्तु समीचीनम् अतः तत्र सर्पः किं वदति
अहं बालस्य दर्शनं न कृतवान्
न कृतवान् किन्तु
मम
कार्यं कृतवान् कार्यं कृतवान् इति सः अङ्गीकरोति, किन्तु किं वदति?
मम उद्देशः
दोषः 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 तत्र
दोषः नास्ति,
हा दोषः मम नास्ति इति सः वदति, तत्र दोषः मम नास्ति इति सः वदति. अस्तु, समीचीनं भगिनि, धन्यवादः.
मया कार्यं कृतम् इति
किं भगिनि?
तद् सर्पं वदति मया इदं कार्यं कृतं, मम अपि मम दोषः नास्ति.
हा, मया कृतं किन्तु मम दोषः नास्ति मृत्योः बलात्. तत्र मृत्युना अहं मृत्युः मां प्रेरितवान्, अतः अहम् एतत् कृतवान् इति सः वदति. समीचीनं भगिनि, हा धन्यवादः, बहु समीचीनतया उक्तवती भवती, समीचीनं, धन्यवादः. हा अस्तु, अग्रे रघुपति महोदय, इदानीं तत्र 49 प्रायः सम्पूर्णं कृतम्, इदानीं तत्र किञ्चित् केवलं प्रथमपरिच्छेदः अग्रिमे पुटे.
एकवारं तदा व्याधः वद, तथापि अस्य बालस्य दर्शनं तु त्वया एव कृतम्, अतः त्वं वद्यः एव इति अवदत्. अहं मृत्योः प्रेरणया एव अस्य बालस्य हनने कर्ताभवं, वास्तविकं कारणं तु मृत्युः एव इति सर्पः अवदत्. अग्रे इदानीं तदा मृत्युः एव तत्र उपस्थितः अभवत्. सः अवदत्, हे सर्प नात्र अहं कारणं न वा त्वं, कालः अत्र कारणं, यतः तेन प्रेरितः अहं त्वां प्रेरितवान्. यथा वायुः आकाशे स्थितान् मेघान् आकर्षति विकर्षति च तद्वदेव कालः अपि अस्मान् सर्वान् आकर्षति विकर्षति च, तेनैव कालेन जगतिदं सृज्यते संह्रियते वा. एवं सति यदि अत्र दोषः स्यात् तर्हि सः कालस्य एव, न तु मम इति. तत् इदानीं सर्पः वदति अहं मम दर्शनं तु मृत्योः प्रेरणया अभवत् इति, अतः मृत्युः एव कारणम् अहं तु न इति सर्पः वदति. तदा मृत्युः एव स्वयम् उपस्थितः भवति, सः आगच्छति, सः वदति, सर्पम् उद्दिश्य वदति, अहं तु तस्य मरणस्य कारणं नास्ति, बालकस्य मरणस्य कारणं नास्ति, न तु त्वमपि, न तु भवान् अहं नास्मि, भवानपि नास्ति तस्य हरणस्य कारणम्. अत्र कालः एव कारणं, तस्य प्रेरणा कालः एव कृतम् अस्ति एतत् कार्यं, तेन प्रेरितः तेन प्रेरितः अहम् एतत् कार्यं कृतवान् अस्मि, मया एतत् कार्यं कृतं. तत्र सः एकं उदाहरणं ददाति, यथा वायुः मेघान् आकर्षति अनन्तरं विकर्षति अनन्तरं त्यजति, वायु आकर्षति विकर्षति, तथैव कालः अपि अस्मान् आकर्षति, आकर्षति इत्युक्ते तस्य समीपे नयति, अस्मान् नयति इत्युक्ते मरणं कारयति अथवा मृत्युं कारयति, अनन्तरं पुनः विकर्षति इत्युक्ते त्यजति वा जननं, पुनः तत् अस्माकं मरणं जननं भवति, तेनैव कालेन, अतः तेनैव कालेन यत् सर्वम् अस्ति अस्मिन् जगति, तस्य सृष्टिः वा संहार वा कालेन एव भवति, भविष्यति, अतः अस्माकं तु दोषः नास्ति, ममापि नास्ति, ममापि दोषः नास्ति, तव अपि दोषः नास्ति, एतत्तु कालस्य एव महिमा इति इति वदति.
समीचीनं महोदय. अतः तत्र केवलं एषः पुत्रः ये अस्ति केवलं तस्य मरणस्य कारणं न, किन्तु काल तु तत्र सर्वा तत्र यद्यद्भवति तत्र संहारः वा तत्र यत् सृष्टिः वा तत्र सर्वस्य कालः एव कारणम् इति तत्र सः वदति. हा समीचीनं महोदय. अग्रे तत्र प्रायशः श्लोकमपि अस्माभिः पठितं महोदय. पठितः
अत्र वदामि. तत्र तत् श्रुत्वा कालः एव तत्र उपस्थितः अभवत्. स वदत् हे व्याध, तस्य बालस्य मरणे न अयं पन्नगः न एषः मृत्युः न वा अहं कारणीभूताः. कारणं तु अनेन कृतं कर्म एव इति. इदानीं कालः वदति अहमपि नास्ति अस्य मरणस्य कारणम्, अहमपि नास्मि, अहं नास्मि कारणं. कारणं तु तस्य अनेन बालकेन कृतं कर्म एव तस्य कारणमस्ति, मरणस्य कारणमस्ति इति. तदा एकं श्लोकं वदति, यदनेन कृतं कर्म तेनायं निधनं गतः, विनाशहेतु कर्मस्य सर्वे कर्मवशावयम् इति वदति. अत्र सर्वे कर्मवशावयं, सर्वे कर्मवशावयम्, अनेन कृतं कर्म तेनायं गतः, सः निधनं गतः अस्ति, अनेन तेन कृतं तेन कृतेन कर्मणा सः तस्य निधनम् अभवत्.
तेन कृतं कृतमस्ति खलु,
क्षम्यतां, तेन कृतेन कर्मणा सः निधनं गतः अस्ति. सः निधनं प्राप्तं, निधनं गतः इति भवति महत्व कर्तरि अपि. अतः कर्म एव विनाशस्य हेतुः इति अस्य.
कर्म अस्य विनाशस्य हेतुः, हेतुः नाम कारणम्,
कारणं
विनाशस्य हेतुः, अस्य विनाशस्य हेतुः कर्म.
अग्रे छाया तपो इव कर्म कर्ता च नित्यसम्बद्धौ भवतः. छाया अपि च आतपः, यथा छाया अथवा प्रकाशः, तेषां नित्यसम्बद्धः भवति. छाया नास्ति चेत्, आतपः नास्ति चेत् छाया अपि न भवितुमर्हति. अतः तत्र एतौ द्वौ अपि सर्वदा नित्यसम्बद्धौ अस्ति. यथा वाक् अपि अर्थस्य नित्यसम्बन्धः अस्ति, अत्र अपि नित्यसम्बन्धः अस्ति. अतः कर्माकर्ता च नित्यसम्बद्धौ भवतः इति वदति.
तत्र वयं जानीमः तत्र द्वयोः मध्ये सम्बन्धः अस्ति, तौ नित्य तत्र तौ सम्बद्धौ, अत्र द्वयोः मध्ये नित्यसम्बन्धः अस्ति. तत्र नित्यसम्बन्धः इत्युक्ते तत्र तस्य सम्बन्धस्य खण्डनं न कर्तुं शक्नुमः. तत्र सम्बन्धः इदानीम् अस्ति, ओ अग्रे नास्ति इति तादृशः नास्ति. तत्र कर्ता अपि कर्म तयोः मध्ये यः सम्बन्धः अस्ति, तत् सः सम्बन्धः तु नित्यः तत्र. अतः नित्यसम्बद्धौ कर्मकर्ता इति. समीचीनं महोदय. अस्तु, इदानीं तत्र गतवर्गे यद्यद् यत् पठितम् अस्माभिः, तद् तस्य पुनस्मरणं जातम् इदानीं. धन्यवादः महोदय. अतः इदानीं तत्र अग्रे गन्तुं शक्नुमः. तत्र इदानीं तत्र लक्ष्मी भगिनी, गीताञ्जलिभगिनी नमस्कारः, अरुणा भगिनी नमस्कारः.
नमस्कारः.
नमस्कारः भगिनी. तत्र पुटसङ्ख्या 50 अस्ति भगिनी गीतासोपाने. गीताञ्जलि भगिनी, पुटसङ्ख्या 50
तत्र. अहम् अन्यं वर्गे
अस्ति. अस्तु 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 भगिनी, नमस्कारः. अस्तु भगिनी, चिन्ता मास्तु. गीताञ्जलि भगिनी, श्रूयते वा?
नमस्ते महोदय,
पेज् 50 मध्ये स्मः भगिनि.
धन्यवादः महोदय, क्षम्यताम्.
अस्तु तर्हि इदानीं तत्र लक्ष्मी भगिनी इदानीम् अग्रे पठितुम् इच्छति वा? तत्र इदानीं तत्र सर्वम् एतत् श्रुत्वा इति ततः.
अस्तु महोदय.
एतावत् पुनस्मरणम् इति आसीत्, किन्तु इदानीम् एतद् वयं न पठितवन्तः, अतः तत्र किञ्चित् पङ्क्तिशः दृष्ट्वा अग्रे गच्छामः. किन्तु एकवारं तत्र परिच्छेदं पठतु भगिनि.
अस्तु महोदय. सर्वम् एतत् श्रुत्वा गौतमी अवदत्, मम पुत्रस्य मरणकारणं येषु न कोऽपि अस्ति. मम पुत्रः स्वीयकर्मणां फलेन मृत्युं प्राप्तवान् अस्ति. ममापि तादृशकर्म एव स्यात् येन एतस्य मृत्युः समभवत्. अतः कालः मृत्युः च स्वस्थानं गच्छदाम्. त्वमपि सर्वं सर्पं त्वमपि सर्पम् एतं परित्यज इति.
समीचीनं भगिनि. इदानीं तत्र पश्यामः किं किम् अस्ति इति. तत्र
गौतमी अनन्तरं गौतमी अवदत् तस्याः पुत्रस्य.
तत्र गौतमी अस्ति, अपि अर्जुनक नाम व्याधः अस्ति, अपि अन्य कोऽपि अन्यकः अस्ति तत्र.
मृत्युः वा
मृत्युः अस्ति, सर्पः अस्ति,
कालः मृत्युः
कालः अस्ति. तत्र अनेके जनाः सन्ति तत्र. अस्तु अस्तु.
सः अवदत्, मम पुत्रस्य मरणकारणं येषु न कोऽपि अस्ति. मम पुत्र एव
मम पुत्रस्य मरणकारणं. तत्र किं कारणं पुत्रस्य मरणस्य तत्र केन कृतम् इत्युक्ते तत्र कारणं किम् अथवा
स्वस्य कर्मणां फलेन मृत्यु प्राप्तवान् मम पुत्रः. स्वस्य कर्मणः फलेन मृत्युं प्राप्तवान्.
अस्तु अस्तु अस्तु. किन्तु एतत् कुर्मः भगिनि. तत्र येषु नः कोऽपि अस्ति, तत्र येषु इति विभक्ति का?
येषु सर्वे सन्ति. सर्वेषु
एतेषु
सर्वेषु कोऽपि नास्ति.
कारणं कोऽपि नास्ति.
तत्र
येषु ये जनाः तत्र तिष्ठन्ति तत्र सन्ति तेषु तत्र मृत्युः वा कालः वा सर्पः वा तत्र तेषु कोऽपि कारणं
नास्ति.
येषु इति नूतनरूपं तत्र एतेषु इति तत्र. किन्तु इदानीं तत्र येषु इति रूपम् अग्रे पश्यामः. अग्रे तत्र मम पुत्रः स्वीयकर्मणां तत्र स्वीयकर्मणां विभक्ति का? तत्र नपुंसकलिङ्गपदं कर्म इति नपुंसकलिङ्गपदं खलु. कर्म कर्मणि कर्माणि
सप्तमी एकवचने वा?
न न न तत्र तत्र कर्मणां नाम भवतां रामाणां देवानां कर्मणां षष्टि
बहुवचने
षष्टिवचनं. तत्र एकमेव कर्म इति नास्ति खलु भगिनि, अतः तत्र कर्मणाम् इति बहुवचने अस्ति.
कर्मणां
कर्म कर्मणि कर्माणि, अतः अनेकानि कर्माणि कृतानि सन्ति, अतः तत्र स्वीयकर्मणां तत्र यानि कर्माणि पुत्रः कृतवान् तानि सर्वाणि स्वीयकर्माणि. तत्र तेषां स्वीयकर्माणि इति तत्र तस्य षष्टिः अस्ति, स्वीय कर्मणां
कर्मणां
कर्मणां फलेन
फलेन
फलेन तत्र कर्मणां फलेन कस्य फलेन कर्मणां फलेन
कर्मणां फलेन
हा सः पुत्रः किं किं प्राप्तवान्
मृत्युं प्राप्तवान् मरणं प्राप्तवान्
हा मरणं प्राप्तवान् फलेन कर्मणां फलेन मृत्युं प्राप्तवान् अस्ति हा अग्रे
ममापि तादृशकर्म एव स्यात् स्यात् येन एतस्य मृत्युः समभवत्
तत्र
अहमपि मम स्वीयकर्मणां फलेन मम पुत्रस्य मरणं प्राप्तवती
मम पुत्रस्य भाग्यं तत्र किञ्चित् परिवर्तनं करणीयं तावदेव तत्र मम ममापि तत्र पुनः वाक्यं वदतु भगिनि
ममापि तादृशकर्म एव स्यात्
स्यात् हा येन येन कर्मणा
येन एतस्य येन कर्मणा एतस्य मृत्युः समभवत्
हा समभवत् इति तत्र लकारः कः तत्र भविष्यत्काल वा भूतकाल वा किं
लङ् लकारः
हा तत्र लट् लकाररूपं किम् अस्ति तत्र उपसर्ग अस्ति वा
ओ भवति
हा भवति इति उपसर्गः कः तत्र
सम् इति
हा समीचीनम् अतः संयोगः अभवत्
अभवत्
हा किन्तु इदानीं लट् लकारे किं भवति संयोगः भवति अतः पदं किं प्राप्तं
सम्भवति
सम्भवति सम्भवति सम्भवति इति लट्लकरे सम्भवति इति लट्लकरे किन्तु एतत् अन्यत् रूपं हा समीचीनं भगिनि मृत्युः समभवत् अतः अग्रे
अतः कालः मृत्युः सर्पः च तस्य कारणं नास्ति
अतः कालः मृत्युः च
त्वमपि सर्पम् एतं परित्यज व्याधः सः व्याधं
प्रति अतः कालः मृत्युः च किमस्ति
स्वस्थानं गच्छताम् सर्वे स्वस्थानं गच्छताम्
तत्र गच्छताम् इति
गच्छताम्
लकारः कः
लोट् लकारः
हा वचनं किम्
स्वस्थानं गच्छताम्
द्विवचनम्
ओ द्विवचनं
द्विवचनं हा समीचीनं समीचीनं किमर्थं द्विवचनं
कालः मृत्युः च
हा इति द्वौ तत्र
अतः
कालः मृत्युः
गच्छतु गच्छतां गच्छन्तु
हा गच्छतु गच्छतां गच्छन्तु समीचीनं समीचीनं अतः तत्र कालः मृत्युः च स्वस्थानं गच्छतां यदि तत्र सर्पः अपि नियोजयामः तत्र कालः मृत्युः सर्पः अपि व्याधः स्वस्थानं गच्छन्तु इति इदानीं तत्र त्वमपि त्वमपि इति तत्र त्वम् इत्युक्ते
व्याधं प्रति सः
वदति त्वमपि
त्वमपि सर्पं परित्यज्य
परित्यज इति लकारः कः
मध्यमपुरुषः एकवचने
लोट् लकार एव हा त्यजतु प्रथमपुरुषः एतत् मध्यमपुरुषः अस्ति अतः परित्यज परित्यज एतम् एतम् इत्युक्ते
एतम्
एतं तत्र एषः सर्पः यः अस्ति एतम्
ओ एतं सर्पम्
एतम् एतं सर्पम्
एतं
परित्यज तस्य मरणं न आवश्यकम् इति सा वदति समीचीनं भगिनि अस्तु धन्यवादः अस्तु अग्रे नरेश् महोदय अग्रे पठितुम् इच्छति वा
आं महोदय
एतां कथाम् अन्तिमपरिचय
एतां कथां श्रावयित्वा भीष्मः अकथयत् राजन् सर्वेपि स्वकर्मणा फलं प्राप्नुवन्ति इति ज्ञानेन रोतम्याः शोकः परिसमाप्तः. सो भीष्मः कथा तथा अवदत् सर्वे स्वस्य कर्मणः फलं प्राप्नोति
प्राप्नुवन्ति सर्वे इति अस्ति चेत् तत्र सर्वे बहुवचने अस्ति प्राप्नुवन्ति सर्वे.
अतः शोकः न करणीयम्
अलं शोकेन. अतः अलं शोकेन तत्र गौतमी अपि तत्र गौतम्याः शोकः किम् अभवत् तत्र गौतम्याः शोकः परिसमाप्तः तत्र गच्छति तत्र तत्र नास्ति इदानीं तत्र तस्याः शोकः इदानीं नास्ति. अतः तादृश अत्रापि अत्रापि इत्युक्ते महाभारतयुद्धे अपि
तथा अस्तु.
युधिष्ठिरः अस्ति तत्र भीष्मः किं वदति तव शोकः अपि
न आवश्यकम्
अलं शोकेन परिसमापयतु तव शोकः समाप्तः भवतु इति सः
त्वया दुर्योधनेन वा न किमपि अपराधम् कस्यापि अपराधः नास्ति त्वया अपराधः नास्ति दुर्योधनः दुर्योधनस्य अपराधः नास्ति. एतत्तु
अपराधं नास्ति तत्र त्वया अपराधं न कृतं न वा दुर्योधनेन.
एतत्तु स्वकर्मणः फलम् अस्ति.
अतः इमे तत् इमे इत्युक्ते सर्वे इमे इमे इत्युक्ते सर्वेपि इमे सर्वेपि इमे इत्युक्ते के
इमे फलं फलानि
न फलानि तु तत्र इमे इति तु पुल्लिङ्गरूपम् अस्ति इमे इत्युक्ते एते एषः एतौ एते इति तत्र एते अनुभवन्ति एते के तत्र
सर्वे जनाः
तत्र सर्वे बान्धवाः समीचीनं महोदय तत्र युधिष्ठिरस्य बान्धवाः तत्र सन्ति खलु तत्र तेषां शरीराणां दर्शनेन एव खलु तत्र युधिष्ठिरः खिन्नः अभवत् एतत् सर्वं तेन उक्तम्. अतः तत्र भीष्मः वदति तत्र सर्वेपि इमे ये सन्ति तत्र ते सर्वे बान्धवाः किम् इमे ते बान्धवाः किं कुर्वन्ति स्वकर्मणः फलम्
अनुभवन्ति
अहमपि फलम् अनुभवामि समीचीनं महोदय. अग्रे
सर्वे कर्मवशाः वयं
तत्र सर्वे कर्मवशाः कर्मवशाः इत्युक्ते
बान्धवाः
तत्र बद्धं वयं सर्वे कर्मणा बद्धम् अथवा कर्मणः आधीने वयं स्मः तत्र तस्य कर्मणः शक्तिः अस्ति अतः तत्र वयं कर्मणा बद्धं वयम् इति इति समीचीनं महोदय.
शोकं मा कुरु
अतः शोकं मा कुरु इति. इदानीं किं भवति भीष्मस्य
भीष्मस्य वचनैः युधिष्ठिरः समाहितः अभवत्.
हा इदानीम् इदानीं भीष्मस्य वचनैः तत्र
सन्तुष्टः अभवत्.
हा तत्र तत्र वचनैः स्थाने कथा आसीत् चेत् भीष्मस्य कथा इति आसीत् चेत् तत्र पदं किं भवति तत्र
कथाभिः
कथा एकमेव एका एव कथा खलु अतः
कथया
हा भीष्मस्य कथया युधिष्ठिरः समाहितः अभवत्. समीचीनं महोदय. अस्तु अतः तत्र कथां पठितवन्तः अपि तत्र नूतनविषयः मूलविषयः कः इत्युक्ते तत्र इदम् इति शब्दः पुल्लिङ्गे भवति अपि नपुंसकलिङ्गे भवति. इदानीं तस्य नूतनपदस्य इदं पदस्य रूपाणि पश्यामः. अस्तु अतः तत्र गीतञ्जलि भगिनी इदानीं तत्र अग्रे पठति वा.
एतानि वाक्यानि सावधानतया उच्चैः पठत. इदम् एकं गुरुकुलम् अस्ति.
इदम् इत्युक्ते
अयम् इत्युक्ते
न इदम् इति इदानीं नपुंसकलिङ्गे अस्ति भगिनि तत्र इदं गुरुकुलम् इति
हा इदम् इदम् इत्युक्ते एतत् एकं गुरुकुलम् अस्ति. इदम् एकं गुरुकुलम्
अस्ति. तत्र गुरुकुलं नपुंसकलिङ्गे अस्ति अतः अत्र एतत् इति रूपं तस्य पर्यायपदम् इदम्
अयं तु पुल्लिङ्गम् अस्ति.
अयम् इति पुल्लिङ्गं समीचीनं भगिनि. हा अयम् इति पुल्लिङ्गः. इदानीम् अग्रिमवाक्यं तत्र
अयम् आचार्यः अस्ति. इत्युक्ते एषः आचार्यः अस्ति.
हा इति समीचीनं भगिनि. एषः आचार्यः अस्ति इति. इदानीं तत्र अग्रिमे पुटे पश्यतु तत्र अयम् इमौ इमे इति रूपाणि सन्ति. अतः अयम् आचार्यः अस्ति द्विवचने बहुवचने किं भवति.
हा द्विवचने तु इमौ आचार्यौ स्तः. इमे आचार्याः सन्ति.
हा इमे आचार्याः सन्ति. समीचीनं भगिनि. हा अस्तु अग्रे तत्र इमम् अपि करोतु तत्र.
हा इदम्
इमम् 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 इमम्
हा इमम् आचार्यं शिष्याः प्रणमन्ति.
इमम् इति अत्र इमम् इति इदानीं तत्र पर्यायपदं किम् अस्ति. एषः अस्ति चेत् तत्र रूपं किं भवति.
एतम्
एतम् हा एतम् इति स्थाने इदानीम् इमम् इति. इमम् आचार्यं शिष्याः प्रणमन्ति. तत्र शिष्याः प्रणमन्ति तदेव भवतु किन्तु आचार्यम् इति तत्र द्विवचने बहुवचने रूपं किं भवति. आचार्यम् इति तत्र विभक्ति का इदानीं
कर्मपदं तत्र
द्वितीयविभक्ति. हा अतः इमम् आचार्यम् इदानीं तत्र द्विवचने किं भवति.
इमम् आचार्यौ न इमं न
इमौ तत्र अग्रिमे पुटे पश्यतु तत्र इमौ हा इमौ
इमौ वा इमे
न इमम् इमौ इमे इति प्रथमविभक्तौ द्वितीयविभक्तौ इमम्
इमौ आचार्यौ शिष्याः प्रणमन्ति.
समीचीनं प्रणमन्ति तत् तिष्ठति एव. इदानीं तत्र बहुवचने
प्रणमन्ति तदेव
शिष्याः प्रणमन्ति. तत्र कं प्रणमन्ति अथवा कौ प्रणमन्ति. इमम् आचार्यं प्रणमन्ति वा अथवा इमौ आचार्यौ प्रणमन्ति. इदानीं बहुवचने कान् प्रणमन्ति शिष्याः.
कान् प्रणमन्ति
इदानीं बहुवचने कान् प्रणमन्ति शिष्याः.
इमान् आचार्यान् शिष्याः प्रणमन्ति.
समीचीनं भगिनि, तावदेव. इमान् आचार्यन् शिष्याः प्रणमन्ति. प्रणमन्ति, समीचीनं भगिनि. अस्तु, अग्रे सूर्यकुमारी भगिनि, अग्रे अनेन इति तृतीयविभक्ति इदानीम्.
अनेन अभ्याम् एभिः, अनेन आचार्येण सह शास्त्रचर्चां कुर्वन्ति. अनेन एतेन
इति अर्थे, समीचीनम्. इदानीम् अनेन आचार्येण सह शास्त्रचर्चां कुर्वन्ति. तत्र के कुर्वन्ति इति न जानीमः, किन्तु केन सह कुर्वन्ति इति जानीमः, खलु? इदानीं तत्र अनेन आचार्येण इति स्थाने तत्र सः इति अस्ति इति कृत्वा तत्र जानीमः, तत्र पूर्वपदस्य तृतीयविभक्तिरूपम् इति. इदानीं तत्र द्विवचने रूपं किं भवति?
अभ्याम् आचार्य आचार्याभ्यां सह शास्त्रचर्चां कुर्वन्ति.
आभ्याम् आचार्याभ्यां सह
शास्त्रचर्चां कुर्वन्ति,
समीचीनम्. इदानीं बहुवचने
एभिः आचार्यैः आचार्यैः सह शास्त्रचर्चां कुर्वन्ति.
तत्र आचार्यैः इति यदा भवती वदति तत् झटिति तत्र सः इति वक्तव्यं भगिनि, नो चेत् तत्र आचार्यैः सह इति तत्र तादृशं यदि वदामः अर्थक्लेशः न भवति. नो चेत् तत्र आचार्यैः तदनन्तरं सः इति वदामश्चेत् तत्र सः विसर्गेण युक्तपदं वा अथवा इति तत्र क्लेशः भवति, अतः आचार्यैः सह इति तत्र जानीमः. अस्तु अस्तु, तत्र आचार्यैः सह, अतः तत्र स योगः हकारः न तु विसर्गः इति, खलु? शास्त्रचर्चां कुर्वन्ति, समीचीनं भगिनि. अस्तु, अग्रे लक्ष्मी भगिनि, अस्मै आचार्याय.
अस्मै आचार्याय फलानि यच्छन्ति.
अस्मै इत्युक्ते एतस्मै,
चतुर्थीविभक्ति,
एतस्मै
आचार्याय फलानि यच्छन्ति.
तत्र इदानीम् अस्मै आभ्याम् एभ्यः इति रूपम्
आचार्याभ्यां फलानि यच्छन्ति.
द्विवचने. इदानीं बहुवचने
एभ्यः आचार्येभ्यः फलानि यच्छन्ति.
तावदेव. तत्र एषः अस्ति चेत् तत्र रूपं किं भवति बहुवचने, चतुर्थीविभक्ति बहुवचने, एषः इति अस्ति चेत्
तस्मै आचार्याय
अथवा एतस्मै
आचार्याय
एताभ्याम्
आचार्याभ्याम् एतेभ्यः आचार्येभ्यः.
अत्र एभ्यः इति अस्ति, तावदेव. एतेभ्यः मध्ये एभ्यः अस्ति खलु, अतः एते इति त्यजामः, तावदेव. एभ्यः आचार्येभ्यः फलानि
यच्छन्ति,
समीचीनं भगिनि. अस्तु, अग्रे रघुपति महोदय, इदानीं तत्र पञ्चमी.
अस्मात् आचार्यात् विविधविद्याः प्राप्नुवन्ति. इदानीम् अस्मात् इदानीं द्विवचने आभ्याम् आचार्याभ्याम् आचार्याभ्याम् विविधविद्याः प्राप्नुवन्ति. एभ्यः आचार्येभ्यः विविधविद्याः प्राप्नुवन्ति. तस्मात् आचार्यात् विविधविद्याः प्राप्नुवन्ति. एताभ्याम् अस्तु एताभ्याम् आचार्याभ्याम् आचार्याभ्याम् विविधविद्याः प्राप्नुवन्ति इदानीम् अग्रे एतेभ्यः खलु एतेभ्यः आचार्येभ्यः विविधविद्याः प्राप्नुवन्ति
इति समीचीनं महोदय अस्तु अग्रे नरेश महोदय इदानीम् अस्य इति
अस्य आचार्यस्य नाम विश्वविख्यातम् अस्ति द्विवचने अनयोः आचार्ययोः
आचार्ययोः आचार्ययोः
नाम विश्वविख्यातम् अस्ति बहुवचनं येषाम् आचार्याणां नाम विश्वविख्यातम् अस्ति
तत्र येषाम् एतेषाम् इति तत्र एतयोः तत्र एतस्य एतयोः एतेषाम् इदानीं तत्र अस्य अनयोः येषां समीचीनं येषां समीचीनं महोदय अस्तु गीताञ्जलिभगिनी अग्रे इदानीं तत्र सप्तमी
आं महोदय अस्मिन् आचार्ये बहवः सद्गुणाः सन्ति अस्मिन् अस्ति एतस्मिन् एतस्मिन् आचार्ये बहवः सद्गुणाः सन्ति
इति अर्थः इदानीं किन्तु इदानीं रूपम् अस्मिन् इति
अस्मिन् अस्ति
तत्र एतस्मिन् आसीत् चेत् तत्र द्विवचने किं भवति एतस्मिन् एतयोः
एतयोः आचार
न भगिनि क्षम्यतां तत्र केवलं तत्र स्मरणार्थं तत्र एतस्मिन् आसीत् चेत् एतस्मिन् एतयोः एतेषु इति खलु
एतेषु
किन्तु इदानीं तत्र रूपम् अस्मिन् अनयोः
अनयोः
एषु इदानीम् इति
इत्युक्ते एषु आचार्येषु अपि च अनयोः आचार्ययोः
समीचीनं समीचीनं भगिनि अतः एकवारं सम्पूर्णवाक्यं वदतु समीचीनमेव
अस्मिन् आचार्ये बहवः सद्गुणाः सन्ति एतयोः
अनयोः अनयोः अनयोः
अनयोः आचार्ययोः बहवः सद्गुणाः सन्ति अपि च एषु आचार्येषु बहवः सद्गुणाः सन्ति
इति समीचीनं भगिनि अतः तत्र नूतनपदं तत्र इदं शब्दः पुल्लिङ्गरूपं तत्र पुल्लिङ्गरूपाणि दृष्टवन्तः वयम् अस्तु समीचीनम् अस्तु अग्रे तत्र लक्ष्मी भगिनी तत्र एकवारं तत्र इदं शब्दस्य रूपाणि एकवारं पठति वा भगिनि
अस्तु महोदय
पुल्लिङ्गरूपं
पुल्लिङ्गः प्रथमविभक्ति अयम् इमौ इमे द्वितीयविभक्ति इमम् इमौ इमाम्
इमान्
इमान् इमम् इमौ इमान् तृतीयविभक्ति अनेन आभ्याम् एभिः चतुर्थी अस्मै आभ्याम् एभ्यः पञ्चमी अस्मात् आभ्याम् एभ्यः षष्टि अस्य अनयोः येषां सप्तमी अस्मिन् अनयोः येषु
इति समीचीनम् अस्तु इदानीं समीचीनं भगिनि अस्तु इदानीं सूर्यकुमारी भगिनि इदानीं तत्र अयं देवः इति वदति वा अयं देवः
अयं वेदः
देवः देवः
अयं देवः इमौ देवौ इमे देवाः इमं देवं इमौ देवौ इमान् देवान्
इमान् देवान् अग्रे
अनेन देवेन आभ्यां वेद देवाभ्याम् एभिः देवैः अस्मै देवाय आभ्यां देवाभ्यां येभ्यः देवेभ्यः अस्मात् देवात् आभ्यां देवाभ्यां येभ्यः देवेभ्यः अस्य देवस्य अनयोः देवयोः येषां देवानां क्षम्यतां देवानां अस्ति देवे अनयोः देवयोः येषु
येषु देवेषु समीचीनं समीचीनम् अस्तु अग्रे नरीश् महोदय तत्र अयम् इति तत्र अयं किं तत्र लघुपदं किं स्वीकुर्मः तत्र अस्तु तत्र अयं प्रियः अयं प्रियः
अयं प्रियः अयं प्रियः इमौ प्रियौ इमे प्रियाः इमं प्रियम् इमौ प्रियौ 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 मान् प्रियान् अनेन प्रियेण आभ्यां प्रियाभ्याम् एभिः प्रियैः अस्मै प्रियाय आभ्यां प्रियाभ्यां येभ्यः प्रियेभ्यः अस्मात् प्रियात् आभ्यां प्रियाभ्यां येभ्यः प्रियेभ्यः अस्य प्रियस्य अनयोः प्रिययोः प्रियोः येषां प्रियाणां
प्रियाणाम्
अस्मिन् प्रिये अनयोः प्रिययोः येषु प्रियेषु
हा येषु प्रियेषु समीचीनं महोदय हा अस्तु अग्रे रघुपति महोदय इदानीं तत्र सुन्दरः
मम अभ्यासः भवति इति ऋकारान्तः खलु अयं पिता अयं पिता इमौ इमौ पितरौ पितरौ इमे पितरः इमं पितरम् इमौ पितरौ इमान् पितॄन् अनेन पित्रा सारि
अनेन
पित्रा आभ्यां पितृभ्यां पितृभ्यां वा एकवारं पितृभ्याम् एव पितृभ्याम् आभ्यां पितृभ्यां येभिः पितृभिः अस्मै अस्मै पित्रे
पित्रे अस्मै पित्रे
पित्रे आभ्यां पितृभ्यां येभ्यः पितृभ्यः
तत्र तत्र
अस्मात् पितुः आभ्याम् आभ्यां पितृभ्यां येभ्यः पितृभ्यः अस्य पितुः अनयोः पित्रोः येषां पितॄणाम् अस्मिन् पितरि
अस्मिन् पितरि
अनयोः पित्रोः येषु पितृषु वा
पितृषु 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 समीचीनं महोदय बहु समीचीनं
अन्यथा मरणे न भवति अतः
किञ्चित् समीचीनमेव समीचीनं सत्यं सत्यं हा अस्तु. इदानीं तत्र गीताञ्जलि भगिनी तत्र भवती किं कर्तुम् इच्छति, तत्र अजन्तपदम् अकारान्तपदं वा अथवा अन्यत्?
अहमपि ऋकारान्त एकवारं करोमि वा?
अस्तु भगिनि, कविः अथवा मुनिः इति.
अस्तु कविः, हरिः हरिः
हरिः कविः. अयम्
अयं कविः, इमौ कवी, इमे कवयः, इमं कविम्, इमौ कवी, इमान्
कवीन्
कवीन् इमान् इमान् कवीन्. अनेन अनेन
कविना
अनेन कविना आभ्यां कविभ्याम् एभिः कविभिः अस्मै कवये
अस्मै हरये नमः अस्मै कवये
अस्मै कवये आभ्यां कविभ्याम् एभ्यः कविभ्यः
कविभ्यः एव समीचीनं कविभ्यः
अस्मात् कवेः
अस्मात् कवेः
अस्मात् कवेः आभ्यां कविभ्याम् एभ्यः कविभ्यः
कविभ्यः तत्र चतुर्थी पञ्चमी बहुवचने समानमिति.
अस्य कवेः अनयोः कवयोः
कव्योः तत्र कव्योः
कव्योः हा हा अर्घः हा कव्योः एषां कवीनां वा
कवीनां तत्र दीर्घैकारः कवीनां
एषां कवीनां अस्मिन् अस्मिन् कवौ
कवौ समीचीनं भगिनि अस्मिन् कवौ अस्मिन् कवौ
अनयोः कवयोः कव्योः एषु कविषु
कविषु समीचीनं भगिनि अस्तु बहु समीचीनम् अस्ति भगिनि धन्यवादः अस्तु हा अस्तु. इदानीं तत्र लक्ष्मी भगिनी तत्र भवती एकवारं पठितवती तत्र इदं शब्दः किन्तु तत्र अन्यत् पदं नासीत् तत्र किं तत्र अहं पदं ददामि वा अथवा भवती एव चिनोति वा?
ददातु भवान् ददातु.
अस्तु भगिनि अहं चिन्तितवान् तत्र उत्तमः वा अथवा सुन्दरः वा इति अत्र अस्तु भगिनी हलन्तपदं कर्तुम् इच्छति वा तत्र हलन्तस्ति चेत् तत्र एतत् कुर्मः अयं
प्रयत्नं करोमि.
अस्तु भगिनि तत्र अयं भवान् इति अयं भवान्
अयं भवान् इमौ भवन्तः
भवन्तौ
इमे भवन्तः इमं भवन्तम् इमौ भवन्तौ इमान् भवतः
समीचीनं भगिनि
अनेन भवता आभ्यां भवद्भ्याम् एभिः भवद्भिः अस्मै भवते आभ्यां भवद्भ्याम् एभ्यः भवद्भ्यः अस्मात् भवतः आभ्यां भवद्भ्याम् एभ्यः भवद्भ्यः अस्य भवतः अनयोः
भवतोः
भवतोः एषां भवताम् अस्मिन् भवति अनयोः भवतोः
समीचीनं भगिनि
भवतोः येषु भवत्सु
भवत्सु बहु समीचीनमस्ति भगिनि धन्यवादः तत्र अस्तु अतः तत्र बहु तत्र अनेकानि उदाहरणानि वयं श्रुतवन्तः इदानीं खलु अतः तत्र अयम् इमौ इमे इति केवलं तद् न किन्तु तत्र तस्य अनन्तरं नामपदमस्ति चेत् अपि तत्र रूपं कीदृशम् इति इदानीं किञ्चित् ज्ञानं वयं प्राप्तवन्तः अस्तु तर्हि अग्रे तत्र नरेश् महोदय तत्र अग्रे तत्र इदं तु तत्र एकवारं पठतु महोदय तत्र इदं किम् अस्ति नपुंसकलिङ्गे
इदम् इमे इमानि इदम् इमे इमानि
तदनन्तरं पुल्लिङ्गवत् अतः तत्र केवलं तत्र प्रथमविभक्तिरूपाणि ज्ञातव्यानि तत्र इदम् इमे इमानि एतत् एते एतानि तत्र तस्मिन् स्थाने इदम् इमे इमानि इति अस्तु अत्र अधोभागे तत्र अवधेयम् इति अस्ति तत् पठति वा महोदय
अवधेयं सर्व अन्य तद् एतद् यद् इदं किम् अस्मद् युष्मद् भवत् इत्यादयः शब्दाः सर्वनामशब्दाः इति उच्यन्ते सर्वनामशब्दाः विशेषणानि भवन्ति एतेषु बहूनां विभक्तिरूपाणि तेषां प्रयोगं च गीतासोपानस्य प्रथमभागे भवन्तः ज्ञातवन्तः अस्मिन् पाठे विशेषतया इदं शब्दस्य प्रयोगः कृतः अस्ति
अतः तत्र तात्पर्यं किम् अस्ति तत्र सर्वनामशब्दाः इति सन्ति
सर्वनामशब्दाः विशेषणानि सन्ति
तत्र सर्वनामशब्दाः विशेषणानि भवन्ति तत्र जानीमः खलु तत्र एषः पुरुषः इति तत्र पुरुषः विशेष्यं विशेषणमस्ति एषः अतः तत्र सर्वनामशब्दः अस्ति चेत् तत् विशेषणं भवति इति जानीमः अपि तत्र प्रथमभागे तत्र गीतासोपानस्य प्रथमभागे तत्र
वयं पठितवन्तः
पठितवन्तः विभक्तिरूपाणि तत्र प्रयोगमपि कथं भवति वयं पठितवन्तः ज्ञातवन्तः वयं तत्र किन्तु अस्मिन् पाठे मूलविषयः कः इत्युक्ते इदं शब्दस्य प्रयोगः कीदृशः इति तत्र अयम् इति तत् सर्वमासीत् खलु तत्र तत्र इमे इति आसीत् पदं तत्र अपि तत्र अन्यत् किम् अस्ति अस्मिन् इति अस्ति अतः तत्र इदं शब्दस्य पुल्लिङ्गरूपं यदस्ति तस्य प्रयोगः कीदृशः इति दृष्टवन्तः अस्मिन् तत्र पाठे अस्तु समीचीनं महोदय धन्यवादः अस्तु इदानीम् अग्रे गच्छामः तत्र प्रश्नः अस्ति वा एतावत् अस्तु तर्हि अत्र अग्रे गच्छामः तर्हि तत्र रघुपतिमहोदय अग्रिमपुटे
अभ्यासः खलु अतः कानिचन वाक्यानि सन्ति तेषु अधोरेखाङ्कितं शब्दम् उद्दिश्य किं शब्दस्य उचितानि रूपाणि उपयुज्य प्रश्नवाक्यानि लिखत कृष्णः सेनयोरुभयोर्मध्ये रथं स्थापितवान् अतः कः इति कृष्णः इति अर्थः प्रश्नमस्ति कः सेनयोरुभयोर्मध्ये रथं स्थापितवान् इति
तावदेव महोदय सत्यं सुलभः अभ्यासः इति मन्ये अस्तु अग्रे गीताञ्जलि भगिनि
आं महोदय पण्डिताः गतासूनगतासूञ्च अनुशोचन्ति
न अनुशोचन्ति
न अनुशोचन्ति पण्डिताः गतासु न गतासून् इत्युक्ते प्रश्नवाचकशब्दः कः कौके कं कौकान् कान् 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 कान्
न केवलं कान् अथवा तत्र च इति अस्ति अतः कान् इति प्रायशः तत्र अपि वक्तुं शक्नुमः इति मन्ये यतोहि तत्र अर्थः न जानीमः न अर्थः न क्षम्यताम् उत्तरं न उत्तरं यदि न जानीमः
आं महोदय यदि केवलम् एकम् एकवारं कान्
अस्ति चेत् अपि तदपि समीचीनं
न भवति नाम महोदय
किं भगिनि
यदि एकवारमेव कान् अहं वदामि वाक्ये च तु
अस्तु 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 च अस्ति इति कृत्वा अस्तु भगिनि समीचीनमेव सत्यं सत्यम् अतः तत्र कान् कान् च
समीचीनं
समीचीनं पण्डिताः कान् कान् च
महोदय अत्र यदि वयम् उत्तरं न जानीमः चेत् एकवचनेपि समीचीनं खलु पण्डिताः कं न अनुशोचन्ति इति
सत्यं सत्यं हा सत्यं महोदय
डिफाल्ट् कर्तुं शक्नुमः खलु
हा तत्र तत्र डिफाल्ट् अस्ति चेत् तत्र किं न अनुशोचन्ति इति एव
किं किं क्षम्यतां किम् एव भवति
किम् एव भवति एकवचने नपुंसकलिङ्गे
नपुंसकलिङ्गे
एव भवति
उत्तरं न
जानीमश्चेत् सत्यं महोदय हा सत्यं तत्र गतासून् अगतासून् च न अनुशोचन्ति अस्तु अग्रे लक्ष्मी भगिनी
अस्तु महोदय उल्बेन गर्भः आवृतः
प्रश्नः
केन गर्भः आवृतः
इति तावदेव समीचीनं भगिनि अस्तु सूर्यकुमारी भगिनी अग्रे
अर्हि पार्थाय ऐश्वर्यं रूपं दर्शयामास
तत्र ऐश्वरं रूपं तत्र विशेषणमस्ति
ऐश्वरं रूपम् ऐश्वरं रूपं दर्शयामास हरिः पार्थाय हरिः कस्मै ऐश्वरं रूपं दर्शयामास कस्मै
कस्मै कस्मै तत्र ऐश्वरम् इत्युक्ते ईश्वरसम्बन्ध अतः रूपम् अतः ईश्वरस्य रूपम् इति अपि तत्र समीचीनं भगिनि अस्तु
महोदय एकः संशयः अस्ति दर्शयामास किं रूपं
हा तत्र भगिनि तत्र लकारः तत्र किम् अस्ति तत्र अपरोक्ष भूतकालरूपम् अस्ति तत् तस्य नाम लकारस्य नाम कः
लकारस्य
नाम किं कोऽपि
हा
लिङ्लकार इति मन्ये
लिट्लकारः
लिट्लकारः अपरोक्ष भूतकालं न न अपरोक्ष अस्ति महोदय
अपरोक्ष अस्ति लिट्लकार द्वित्वं भवति इति न दर्शयामः
तत्र दर्शयति दर्शयामास दर्शयति तत्र धातु जानाति वा महोदय तत्र दर्शयति दृश् धातु खलु
आमां महोदय तत् अत् लिट्लकारे अस्ति दर्शय लिट्लकार एव अस्ति
महोदय दृश् धातोः अस्तु
लिट्लकार अस्ति
लिट्लकारं हा दर्शयामास इति अस्तु समीचीनं धन्यवादः महोदय हा लक्ष्मी भगिनी समीचीनं वा
लिट्
हा लिट् लिट्लकारः अस्तु अग्रे तत्र नरेश महोदय
तपस्वी योगी अधिकः केभ्यः योगी अधिकः।
हा तत्र विभक्ति का तत्र
पञ्चमी विभक्ति।
हा समीचीनं महोदय। हा अधिकः तत्र कस्मात् अधिकः अथवा केभ्यः
योगी अधिकः
अधिकः तत्र तपस्विभ्यः। तत्र तपस्विभ्यः इति अस्ति तत्र प्रथमाविभक्ति एकवचनरूपं किम् अस्ति न एकवचने प्रथमाविभक्ति एकवचनरूपं
प्रथमविभक्ति एकवचनं तपस्विन्
हा प्रातिपदिकं तपस्विन् प्रथमविभक्ति तपस्वी तपस्वी दीर्घ दीर्घैकारः योगीवत् योगिवत् तपस्वी तपस्वी योगी योगिनौ योगिनः तपस्वी तपस्विनौ तपस्विनः अतः तत्र तपस्विभ्यः इति योगिभ्यः गुणिभ्यः वत् तपस्विभ्यः योगी अधिकः। समीचीनं महोदय। अस्तु अग्रे रघुपति महोदय।
जातस्य मृत्युः ध्रुवः कस्य मृत्युः ध्रुवः
कस्य मृत्युः ध्रुवः समीचीनं
केषां मृत्युः केषां मृत्युः
केषामपि समीचीनमेव तत्र मृत्युः ध्रुवः तत्र क्लेशः न भवति यतोहि
तत्र
षष्टिः भवति सत्यं महोदय। अस्तु गीताञ्जलिभगिनी अग्रे।
अर्जुनः विषादेन रथोपस्थे उपाविशत् अर्जुनः विषादेन कस्मिन् उपाविशत्
कस्मिन् उपाविशत् कस्मिन् उपाविशत् समीचीनं भगिनि विषादेन कस्मिन् उपाविशत्। अस्तु सूर्यकुमारी भगिनी अग्रे।
महोदय
अग्रे
अग्रे
कल्याणकृत्
कल्याणकृत् दुर्गतिः दुर्गतिं न गच्छति कल्याणकृत् दुर्गतिः
दुर्गतिं
न गच्छति कृत् कल्याणकृत् कः दुर्गतिं
न गच्छति समीचीनं तावदेव तत्र कर्तृपदम् अस्ति खलु भगिनि तत्र प्रथमविभक्ति अतः कः दुर्गतिं न
गच्छति
न गच्छति तावदेव। अस्तु तत्र प्रायशः तत्र अग्रिम अभ्यासः
अत्र अर्जुनः विषादे रथोपस्थे उपविशत् विषादे रथे उपविशत् भवति वा रथो उपस्थे इति रथोपस्थ यः रथे उपस्थितः सः रथ उपस्थितः रथोपस्थितः खलु अतः रथोपस्थे इति कथं भवति
किन्तु रथो उपस्थे उपस्थः रथस्य उपस्थः तत्र उपस्थितः इति नास्ति तत्र रथस्य अधोभागः इङ्कितः इति मन्ये महोदय तत्र
तादृश भवति इदानीम् अत्र एकवचने किम् अस्ति महोदय
रथोपस्थः इति प्रायश पुल्लिङ्गे अस्ति तदेव तदेव सत्यं सत्यं महोदय तत् हा तत्र उपस्थितः इति नास्ति उपस्थः इति अस्ति तत्र उपस्थितः इत्युक्ते अर्जुनः उपस्थितः
रथोपस्थः रथे उपस्थितः अस्ति सः रथोपस्थः
तदपि भवति किन्तु महोदय अस्तु चिन्तयामः तत्र उपस्थः
उपस्थः सिंहासनम्
अतः
रते रते यः सिंहासनमत् तस्मिन् उपाविशति.
अत्र समासः अस्ति महोदय, समासपद.
हा हा, तत्र रते रते
रथो रथः
आसनमस्त्येव अस्ति मध्यभागे आसनमेव तस्मिन् अस्ति रथस्य मध्यभागे.
महोदय गतासु न गतासु कर्तृपदम् अस्ति चेत्
तत्र गतासु इति अस्ति गतासुः
गुरुवत् वा
इति मन्ये उकारान्तपदं गुरुवत् भगिनि सत्यं
गतासुः अगतासुः
इति. हा समीचीनं. हा अस्तु अग्रे तत्र द्वितीय अभ्यासः तृतीय अभ्यासः तत्र किमपि नास्ति इति मन्ये, किन्तु तत्र द्वितीय अभ्यासे तु किमपि नास्ति, अतः तृतीय अभ्यासं वा एकवारं कुर्मः तत्र. किन्तु तत्र एतत् पदं तद् शब्दस्य वा उचितरूपैः रिक्तस्थानानि पूर्यत इति अस्ति, तत् त्यजामः, तत्र इदं पदं स्थापयामः खलु, तत् प्रायशः समीचीनं भवति. अतः तत्र इदं पदं स्वीकृत्य अभ्यासं कुर्मः. अस्तु तर्हि तत्र गीताञ्जलि भगिनी अग्रे करोति वा.
स्त्रीलिङ्गम् अपि अस्ति भगवद्गीता.
हा स्त्रीलिङ्गम् अस्ति चेत् किं कुर्मः तत्र, हा न पठितवन्तः, अस्तु तत्र किं कुर्मः, पेज् 56 मध्ये इयम् इति अस्ति, हा तत् एकवारं तद् दृष्ट्वा उत्तरं वदामः.
56
मध्ये स्त्रीलिङ्गरूपम् इयम् इमे इमाः इति अस्ति भगिनि, यदि आवश्यकम् अस्ति चेत्. अतः तत्र तु प्रायशः आवश्यकम् अस्ति, यतोहि तत्र भगवद्गीता पुस्तिका सुन्दरी अस्ति, अतः तत्र इयम्
इयं भगवद्गीता अस्ति चेत् इयम् अस्ति महोदय,
भगवद्गीता
पुस्तिका सुन्दरी अस्ति. पुस्तिका तु
स्त्रीलिङ्ग,
भगवद्गीता अपि स्त्रीलिङ्गपदं, सुन्दरी तु विशेषणपदम् अस्ति.
अपि अत्र इयम् अपि विशेषणं सर्वनाम पदं, तदपि स्त्रीलिङ्गे, अतः इयं
सङ्ख्या कुत्र महोदय, इयं
56 भगिनि.
महोदय अत्र भगवद्गीता पुस्तिका पुस्तकम् इत्यस्य इदं स्त्रीलिङ्गे अस्ति, इदं इयं भगवद्गीता पुस्तिका सुन्दरी अस्ति इति इदानीम् अहं पुल्लिङ्गं वदामि, अयं ग्रन्थः अयं किमपि अकारः भवति किं भवितुमर्हति, तत् न भवति खलु.
हा तत्र महोदय तत्र किं कुर्मः, तत्र प्रायशः संयुक्तपदं कृत्वा तत्र भगवद्गीता ग्रन्थः सुन्दरः अस्ति, हा सुन्दरः अस्ति, नो चेत् तत्र भगवद्गीता इति अस्ति चेत् तत्र
पुल्लिङ्गे अपि पुल्लिङ्गे नास्ति पुस्तकस्य, श्रीलिङ्गे अपि च न
सत्यं महोदय सत्यं, हा पुस्तिका अथवा पुस्तकं किन्तु पुल्लिङ्गरूपं
नास्ति, भगवद्गीता भगवद्गीता पुस्तकम् इति भवति.
हा सत्यं संयुक्तपदं कृतं
सुन्दरमस्ति, भगवद्गीता पुस्तकं सुन्दरमस्ति
सत्यं महोदय. अस्तु अग्रे लक्ष्मी भगिनी.
अस्तु
क्षम्यतां महोदय, रघुपति आचार्य महोदय किम् उक्तवान् अहं क्षम्यतां महोदय, न
तत्र तत्र वदतु महोदय.
न न पुस्तक अत्र पुस्तिका इति त्रिलिङ्गरूपमस्ति पुस्तकस्य, पुस्तकम् इति न पुस्तकलिङ्गमस्ति, पुस्तिका अस्ति, तर्हि इदानीम् अस्माकं तु विवक्षा अस्ति पुल्लिङ्ग पुस्तकम् अस्ति चेत् किं वक्तव्यम् इति, पुल्लिङ्गरूपं नास्ति खलु पुस्तकस्य, अतः तत्र समासः कृत्वा करणीयम् इति महोदयेन उक्तमस्ति. भगवद्गीतापुस्तकम् अथवा भगवद्गीताग्रन्थः, भगवद्गीताग्रन्थः इति समासः भवति. भगवद्गीताग्रन्थः सुन्दरः अस्ति, भगवद्गीतापुस्तकं भगवद्गीतापुस्तकं सुन्दरम् अस्ति.
अयम् अयं भगवद्गीतापुस्तकं सुन्दरम् अस्ति.
अयम् अस्ति चेत् तत्र ग्रन्थः अस्ति चेत् अयम् अयं भगवद्गीताग्रन्थः सुन्दरः अस्ति.
अस्ति, हा हा, अवगतम्.
अस्तु लक्ष्मी भगिनी.
अस्य ग्रन्थस्य कर्ता वेदव्यासः.
अस्य ग्रन्थस्य कर्ता वेदव्यासः, समीचीनं भगिनि. अस्तु नरेश महोदय अग्रे.
अस्याः गीतायाः अध्ययनेन शान्तिः लभ्यते.
हा समीचीनं. सूर्यकुमारी भगिनी अग्रे.
योगम् अहं विवस्वते प्रोक्तवान्.
तत्र योगः इति प्रायशः अस्ति खलु, तत्र योगः पुल्लिङ्गे अस्ति इति मन्ये.
पुल्लिङ्गे अस्ति चेत् योगं
विभक्तिः तत्र
इमं.
इमं, इमं
योगम् अहं विवस्वते प्रोक्तवान्.
अहं विवस्वते प्रोक्तवान्. विवस्वते इति पदस्य विभक्तिः का तत्र?
विवस्वते विवस्वतु
भवान्
विवस्वते प्रोक्तवान्. तत्र प्रोक्तवान् अस्ति चेत् तत्र उक्तवान्, तत्र कृष्णः वदति कस्मै कस्मै उक्तवान् विवस्वते उक्तवान्.
षष्ठी एकवचनं
न चतुर्थी. भवते इति तत्र भवते विवस्वते अत्र तादृश तत्र ते इति चतुर्थी एकवचनं
चतुर्थी एकवचनं
इति. अस्तु तर्हि तत्र समयः अपि जातः, किन्तु एषः अभ्यासः सुलभः इति मन्ये. अतः तत्र अग्रिमे वर्गे अनेन अभ्यासेन वर्गस्य आरम्भं कुर्मः. तदनन्तरं तत्र लघुकथा अपि अस्ति तत्र अग्रिमे अभ्यासे, तत्र चतुर्थे अभ्यासे, तत् कृत्वा अपि सम्भाषणमस्ति. तदनन्तरं पुनः स्त्रीलिङ्गशब्दानां परिचयः, सर्वनामशब्दाः, तत्र इदं शब्दः स्त्रीलिङ्गरूपम् अग्रिमे वर्गे पश्यामः. अस्तु
तर्हि
सत्यं भगिनि, सत्यं. अस्तु लक्ष्मी भगिनी तत्र अन्ते शान्तिमन्त्रं वदति वा भगिनि?
अस्तु महोदय. ॐ पूर्णमद पूर्णमिदं पूर्णात् पूर्णमुदश्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरिः ओम्. श्रीगुरुभ्यो नमः. हरिः ओम्.
धन्यवादः भगिनि.
धन्यवादः महोदय.
सर्वेभ्यो नमः. धन्यवादः. अग्रिमवर्गे मिलामः. नमस्कारः.
धन्यवादः महोदय.
नमस्कारः.